एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेकपा माओवादी केन्द्रस्य काष्ठमण्डपे सञ्चल्यमाने केन्द्रीय समितेः उपवेशे ह्य 65 केन्द्रीय सदस्याः धारणाः उपस्थापयन् एवं भाषमाणाः केन्द्रीय सदस्याः परह्यो दलाध्यक्षेण प्रधानमन्त्रिणा च पुष्पकमल दाहाल प्रचण्डेन उपवेशे प्रस्तुते प्रतिवेदने केन्द्रीभूय स्वधारणाः व्यक्तवन्तः इति दलस्य उपाध्यक्ष प्रवक्ता च कृष्णबहादुर महरा अज्ञापयत्। अपरोपाध्यक्ष अग्निप्रसाद सापकोटा ऐषम उपवेश पूर्वकालिकानाम् उपवेशानामपेक्षया भिन्न पद्धत्या अग्रे वर्धमानोस्तीति सूचयन् सर्वैः केन्द्रीय सदस्यैः प्रस्तुताः धारणाः संयोज्य अध्यक्षस्य राजनीतिक प्रतिवेदनाय अन्तिमरूपं प्रदास्यते इत्यगदत्। उपवेशे वरिष्ठ नेता वरिष्ठोपाध्यक्ष उपप्रधान गृहमन्त्री च नारायणकाली श्रेष्ठ भ्रष्टाचारस्य विषये सर्वकारेण दृढतापूर्वं कार्यम् विद्यमानम् अस्तीति ज्ञापितवान् एवं गतदिने भाषमाणाः अन्ये सदस्याश्च दलं सबलीकृत्य सुदृढीकृत्य च जनाकांक्षायाः अनुसारेण अग्रे वर्धितव्यमिति धारणाः व्यक्तवन्तः इति उपवेशस्य पश्चात् केन्द्रीय सदस्या माधव सापकोटा असूचयत्। संसदीय श्रवण समित्या विभिन्नानां देशानां कृते प्रस्तावितानां शरणां राजदूतानां नामानि अनुमोदितानि सन्ति। समितेः गतदिने उपविष्टेन उपवेशेन सर्वकारेण विभिन्नानां देशानां कूटनीतिक नियोगस्य च कृते परामृष्टाः षड् राजदूताः संसदीय श्रवणं समाप्य अनुमोदिताः वर्तन्ते। समित्या न्यूयोर्कस्थितस्य संयुक्त राष्ट्रसंघस्य नेपालस्य स्थायी नियोगाय सहसचिव लोकबहादुर थापा, स्विट्जरल्याण्ड देशस्य आवासीय राजदूताय सहसचिव रामप्रसाद सुवेदी, फ्रान्स देशाय सहसचिव सुधीर भट्टराई, कुवेत देशाय सहसचिव घनश्याम लम्सालह, संयुक्त अरब इमिरेट्स देशाय सहसचिव तेजबहादुर छेत्री, थाइल्याण्ड देशाय धनबहादुर ओली च अनुमोदिताः सन्ति। समितौ राजदूत नियुक्तेर विषये षण् निवेदनानि प्रस्तुतानि, यसाम् मध्ये त्रीणि सैद्धान्तिकानि, द्वे च व्यक्तिगते आसन् इति ज्ञापयन् एतानि निवेदनानि अधीत्य परामृष्टानां व्यक्तिनाम् अवधारणां चिन्तनम् आगामि कार्ययोजनां च श्रुत्वा राजदूतपदाय अनुमोदनं विहितमिति उपवेशानन्तरं समितेः सभापतिः ज्ञानेन्द्र बहादुर कार्की अवोचत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा वदति सर्वकारः सुशासनस्य पक्षे दृढतापूर्वकं संस्थितो वर्तते। अस्यैव श्रावणस्य 16 दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं पूर्वे द्युः मन्त्रालये आयोजिते पत्रकार सम्मेलने मन्त्री शर्मा सार्वजनिक क्षेत्रे जायमानानाम् अनियमितता, भ्रष्टाचार प्रवृत्तिनां, विकृति विसंगतीनाम् अन्ताय सर्वकारः अभियानस्य रूपेण अग्रे वर्धितोऽस्तीति अवोचत। सर्वकारस्य प्रवक्ता च मन्त्री शर्मा अगदत् सर्वकारस्य पश्चात्तनकार्यै जनतायाम् उत्साहो वर्धितः, सर्वकारेण स जनतायाः योजनस्य वातावरणं निर्मितं च वर्तते। अवैध सुवर्ण प्रकरणस्य सन्दर्भे संचारकर्मीः व्यक्तां जिज्ञासां समादधाना मन्त्री शर्मा राजस्वानुसन्धान विभागेन एतस्य प्रकरणस्य तथ्यमनुसन्धीयमानम् अस्तीति हेतोः तत्कालं पृथक् अनुसन्धान समितेः संगठनात् अनुसन्धानम् इदं प्रभावितं भविष्यतीति कारणात् अपरा अनुसन्धान समितिः आवश्यकी न भवतीति अतर्कयत। मन्त्री शर्मा संसदः सुचारू सञ्चालनस्य विषये विमृश्यमानम् अस्तीति भाषमाणा दलानां मध्ये शीघ्रं सहमतिर्भविष्यतीति विश्वासम् अभिव्यनक। मन्त्री शर्मा द्वितीय खाद्य पोषण सुधार कार्यक्रमाय विश्वकोषात् प्राप्स्य मानया अब्जद्वयस्य 62 कोटिनां च रूप्यकाणाम् अनुदान सहायतया सम्बद्धाय प्राविलेखनाय सार्वजनिक वित्त व्यवस्थापन सबलीकरण विकेन्द्रित सेवा प्रवाह कार्यक्रमस्य कृते ऐषयिक विकास कोषात् प्राप्स्यमानाया त्रयोदशाब्जानां 13 कोटिनां च रूप्यकाणां सौविध्यपूर्ण सहायताया प्रदान सम्बद्ध विषयाय च अन्तिम रूप प्रदानार्थम् अर्थमन्त्रालयस्य सहसचिवस्य संयोजकत्वे वार्ता समूहम् संघटयितुं निर्णीतमिति प्रावोचत्। संवैधानिक परिषदा ह्य उपविष्टेन उपवेशेन सर्वोच्च न्यायालयस्य वरिष्ठ न्यायाधीश विश्वम्भर प्रसाद श्रेष्ठ प्रधान न्यायाधीश पदे नियुक्तये परामृष्टो वर्तते। सीमा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालय ह्य उपविष्टेन संवैधानिक परिषद उपवेशेन स्वरिक्तायमाने प्रधान न्यायाधीश पदे नियुक्तये सर्वोच्च न्यायालयस्य न्यायाधीश विश्वम्भर प्रसाद श्रेष्ठ परामृष्टः इति उपवेशस्य पश्चात् राष्ट्रियसभायाः अध्यक्ष गणेश प्रसाद तिमल सिन्हा अज्ञापयत। एवमेव उपवेशेन महालेखा परीक्षकस्य निर्वाचन आयुक्तस्य प्राकृतिक स्रोतो वित्तायोगस्य मुस्लिम आयोगस्य सदस्यानां च नियुक्तेः प्रक्रियाम् अग्रे वर्धयितुमपि निर्णीतमस्ति। रिक्तानाम् एतेषाम् सांवैधानिक पदानाम् कृते इच्छुकेभ्यः जनेभ्यः आवेदनम् प्रदातुम् पञ्चदश दिनानाम् सूचना प्रदेयेति वर्तमानायाः वैधानिक व्यवस्थायाः अनुसारेण सूचनाम् सार्वजनिक कर्तुम् च उपवेशेन निर्णीतम् अस्तीति अध्यक्षः तिमल सिन्हा अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन काष्ठमण्डप उपत्यकायाः अभ्यन्तराणाम् विभिन्नानाम् अष्टानाम् चिकित्सालयानाम् ह्य अनुगमनम् विहितमस्ति। मन्त्रालयेन अनुगमन समूहम् निर्माय ह्य महाराजगंजवर्तिनः कान्तिवाल चिकित्सालयस्य स्वयम्भूवर्तिनः मनमोहन स्मारक चिकित्सालयस्य भक्तपुर चिकित्सालयस्य भक्तपुरवर्तिनः नागरिक सामुदायिक चिकित्सालयस्य भैंसेपाटीवर्तिनः मेडिसिटी चिकित्सालयस्य जावला खेलवर्तिनः अल्का चिकित्सालयस्य जोरपाटीवर्तिनः नेपाल मेडिकल कलेज चिकित्सालयस्य जोरपाटीवर्तिनः शंखरापुर चिकित्सालयस्य च अनुगमनम् विहितमस्ति। तदवसरे स्वास्थ्य मन्त्रिणा मोहनबहादुर बस्नेत इत्यनेन न्यूनतम मापदण्डानाम् अनुसारेण चिकित्सालयाः सञ्चाल्यमानाः सन्ति न वा रोगणेभ्यः उपचारस्य क्रमे सौविध्यस्य व्यवस्था विहितास्ति न वा इत्यादिषु विषयेषु व्यवस्थापन पक्षेभ्यः ज्ञातम् आसीत्। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला कथयति राष्ट्रिय अनुसन्धान विभाग राजस्व अनुसन्धान विभागश्च प्रधानमन्त्री मन्त्री परिषद कार्यालयात् पृथकृत्य पूर्ववत् मन्त्रालययोः अन्तर्गतमेव स्थापनीयौ। प्रजातान्त्रिक विचार समाजस्य नवनिर्वाचित समूहेन ह्य आयोजिते विमर्शन कार्यक्रमे नेता डाक्टर कोइराला प्रजातान्त्रिक प्रक्रियां नावरुद्धमपि एतद् विभागद्वयं पूर्ववत् मन्त्रालययोः अन्तर्गतमेव स्थापनीय यमिति बलं प्रादात। राष्ट्रिय सभाया ह्यस्तनोपवेश प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य सांसदानाम् अवरोधनस्य कारणेन स्थगितो भवत। उपवेशस्य प्रारम्भणस्य पश्चात् एमाले दलस्य सांसद भैरव सुन्दर श्रेष्ठ स्वस्य कथनं संस्थाप्यमान स्वर्ण तास्करी संलग्नः सर्वे जनाः अनुसन्धानस्य परिधौ आनेयाः इति अयाचत। उपवेशे सांसदस्य श्रेष्ठस्य कथनस्य समाप्ति अनुपदमेव एमाले दलीय सांसदाः उत्थाय विरोधं व्यक्तवन्तः। तत्पश्चात् राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमल सिन्हा उपवेशस्य कार्यसूचीमग्रे वर्धयितुम् अनुरुणत। अनुरोधस्य पश्चादपि एमाले दलीय सांसदै उत्थाय विरोध प्रकटनस्य कार्याय नैरन्तर्यम् प्रदत्तम्। तत्पश्चात् उपवेश स्थगितो भवत्। राष्ट्रिय सभायाः अपर उपवेशः अस्यैव श्रावणस्य द्वाविंशे दिवसे सोमवासरे दिवा एकवादने अवस्था। अर्थमन्त्री डाक्टर प्रकाश शरण महत निगदति सर्वै सनिष्ठम् कार्येषु सम्पादितेषु सत्सु राजस्वम् लक्ष्यम् अवाप्स्यति। वीरगंज स्थितयो शुष्क वस्तु वैयान विश्रान्ति स्थलस्य प्रवेश शुल्क कार्यालयस्य च निरीक्षणस्य क्रमे ह्यो मन्त्री डाक्टर महत एवम् अगदत्।